एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। गतदिने अतिरिक्तः 760 जनाः कोरोना विषाणोः संक्रमणात् मुक्ताः सन्तो गृहं प्रत्यावृताः सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य गतदिवसीय नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डाक्टर जागेश्वर गौतमः गतदिने 760 जनैः संक्रमणात् मुक्ति प्राप्तेः अनन्तरं संक्रमणमुक्तानां जनानां समग्र संख्या 13,350 च प्राप्ता स्थिति अज्ञापयत्। मन्त्रालयस्य अनुसारेण अधुनावधि 10.77% संक्रान्ता जना प्राप्त स्वास्थ्यलाभा सन्ति। ह्य अतिरिक्तेष् सते नवसु च जनेष् संक्रमण पुष्टीभूत वर्तते। एतदनुसारेण नेपाले संक्रान्तानां जनानां समग्र संख्या 18,783 प्राप्तास्ति। एवमेव ह्य अतिरिक्तस्य जनैकस्य मृत्योः पश्चात् नेपाले कोरोना संक्रमणानन्तरं मृतानां जनानां संख्या 45 प्राप्ता वर्तते। परिपिधानस्य सरलीकरणस्य समये सीमाक्षेत्रात् निलीय प्रविष्टैः भारतीय श्रमिकजनैः वीरगंजस्थाने कोरोना संक्रमण प्रसृतम् अस्ति इति तथ्यं सार्वजनीभूतं वर्तते। वीरगंजस्थानस्य पथलैयावर्तिनी औद्योगिक क्षेत्रे स्थापितानाम् उद्योगानां सञ्चालकैः परिपिधानस्य सरलीकरणस्य अनन्तरं भारतात् आहूतानां श्रमिकाणां कारणेनैव वीरगंजस्थाने कोरोना प्रसृतम् अस्ति इति नारायण चिकित्सालयस्य कोविड कक्ष प्रमुखः डाक्टर नीरज सिंह अवोचत। वीरगंजस्थानस्य नारायण चिकित्सालयस्य अस्थायी कोविड गण्डक चिकित्सालयस्य एकान्तवास केन्द्रे उपचारार्थं प्रविष्टेषु रोगीषु प्रायः भारतीय श्रमिकाः वर्तन्ते। सुनसरी जनपदस्य इनरुवा नगरपालिकायां कोरोना विषाणोः संक्रमणस्य अतिरिक्तं वर्धनं रोद्धुं पुनः परिपिधानं क्रियान्वितं वर्तते। पीसीआर विधेः परीक्षणस्य क्रमे सुनसरी जनपदस्य इनरुवा स्थानीय एकस्मिन् पुरुषे कोरोना संक्रमणस्य पुष्टेः अनन्तरं अतिरिक्त संक्रमणस्य प्रसारणं रोद्धुं सुनसरी जनपद प्रशासन कार्यालयेन इनरुवा नगरपालिकायां गतदिवसतः परिपिधानं क्रियान्वेतुं निर्णीतम् अस्ति। सशस्त्र प्रहरिणः पूर्व डीआईजी परियस्य रंजन कोइराला विदस्य कारावासनस्य न्यूनीकरणत्वेन सर्वोच्च न्यायालयेन विहिते निर्णये महान्यायाधिवक्तुः कार्यालयेन पञ्जीकारिते पुनरावलोकन निवेदने निर्णय श्रवणम् अद्य भवति। जनपद पुनरावेदन न्यायालयाभ्यां सर्वस्वसहितं श्रावितस्य आजन्म कारावासनस्य कोइरालाभिदस्य कृते सर्वोच्च न्यायालयस्य प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जवराभिदस्य न्यायाधीशस्य तेजबहादुर केसी इत्यस्य च संयुक्त न्यायपीठेन 11 वर्षाणां कारावासनस्य न्यूनीकरणस्य निर्णय श्रावणस्य अनन्तरं महान्यायाधिवक्तोः कार्यालयेन पुनरावलोकन निवेदनं पञ्जीकारितमस्ति। परराष्ट्रमन्त्री प्रदीप कुमार ग्यवाली वदति सम्प्रत्येव मानचित्रे समाविष्टं नेपाली भूभागं प्रत्यावर्तयितुं सर्वैः एकताबद्धैर्भाव्यम्। काभ्रेपलाञ्चोक जनपदीयेन मदन भण्डारी प्रतिष्ठानेन ह्यो बनेपा स्थाने आयोजिते जनपद मेलने परराष्ट्रमन्त्री ग्यवाली अवासत भारतेन सह विधातव्यायां वार्तायां तथ्य प्रमाणानि प्रस्तुत्य स्वस्य स्वामित्वं प्रत्यावर्तितव्यम्। मन्त्री ग्यवाली कोरोना विषाणु विरोधिनी युद्धे नेपालेन दक्षिणैशैक क्षेत्रे एव प्रभावकारिणी सफलता प्राप्तास्तीति न्यश्चिनोत्। गत वैशाख मासात् अस्यैव श्रावणस्य नवदिवसं यावत् जलविप्लव भूस्खलन वज्रपातानां कारणेन आराष्ट्रं 181 जनाः मृताः सन्ति। विपदा 150 विलुप्ताः 728 जनाः आहताः सन्तीति राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन ज्ञापितं वर्तते। केवलं भूस्खलनस्य कारणेन 128 जनाः अम्रियन्त इति प्राधिकरणस्य प्रमुख अनिल पोखरेल असूचयत्। विलुप्तानां जनानां इदानीमपि अन्वेषणं विधीयमानमस्ति इति प्रमुख पोखरेल अवदत्। झापा जनपदस्य कन्काई नद्या जलविप्लवेन झापा ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य टप्पुस्थितं तटभञ्जनं भञ्जयित्वा वसतौ प्रविष्टेन नद्यः जलेन 100 बीघा परिमितायाः अपि अधिका कृषियोग्य भूमिः प्रवाहिता वर्तते। कन्काई नद्यः जलविप्लवेन तटबन्धने भञ्जिते सति 100+ गृहपरिवाराः पूर्णरूपेण विस्थापिताः 100 बीघा परिमितायाः अपि अधिका कृषियोग्या भूमि प्रवाहिता च वर्तते इति ग्रामपालिकायाः अध्यक्ष जयनारायण शाह अबोधयत्। विभिन्नानां राजनीतिक दलानां नेतृभिः वर्तमानावस्थायां राष्ट्रिय सहमतेः आवश्यकता प्रदर्शिता वर्तते। ह्यः काष्ठमण्डपे आयोजिते साक्षात्कार कार्यक्रमे सत्तारूढस्य नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य संसदीय दलस्य प्रमुख सचेतकः देवप्रसाद गुरूङ अवदत् राष्ट्रिय सहमत्या अग्रे प्रवर्धनस्य अपर विकल्पो न विद्यते। असौ नेकपा दले विभक्ते सति राष्ट्रियतायाः एव संकटे निपतनस्य सम्भावना स्थिति हेतोः विमर्शनं विहितं सदापि दलं विभक्तं न भवतीति प्रामाणयत्। कार्यक्रमे प्रमुख प्रतिपक्षणो नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य मीन बहादुर विश्वकर्मा, जनता समाजवादी दल नेपालस्य नेता लक्ष्मणलाल कर्णश्च विचारान् प्राकटयताम्। नेपाली कांग्रेस दलस्य महामन्त्री पूर्णबहादुर खड्का कथयति सर्वकारेण कोरोना नियन्त्रणाय पर्याप्त समय प्राप्तेपि प्रभावकारी रूपेण कार्यं कर्तुं सक्तं नास्ति। कांग्रेस दलस्य तरुण विभागेन ह्य आयोजिते विभागस्य नवनियुक्तानां सदस्यानां शपथग्रहण कार्यक्रमे असौ सर्वकारेण जनापेक्षाया अनुसारेण कार्यं कर्तुं न सक्तम् इति आरोपयत्। राष्ट्रिय प्रजातन्त्र दलस्य पूर्व महामन्त्रिणा उच्चस्तरीय कार्यसम्पादन समिते सदस्येन च सुनिल बहादुर थापा विदेन सहितैः एकत्रिंशता सदस्यैः दलात् संयुक्त रूपेण त्यागपत्रं प्रदत्तमस्ति। राष्ट्रियतायाः प्रजातन्त्रस्य उदारवादस्य च सैद्धान्तिक पृष्ठभूमौ वैकल्पिक प्रजातान्त्रिक दलस्य निर्माणस्य उद्देश्येन दलं संघटितं सदपि पश्चवर्ती समये दले सैद्धान्तिक्यां वैचारिक्यां च मान्यतायां विचलनं दृष्टमस्ति इत्यतः राप्रपा दलात् पृथक् भवनीयम् अभूत् इति एतेषां संयुक्त त्यागपत्रे उल्लिखितमस्ति।